अथ चतुर्थः पादः अङ्गस्य हलः नामी न तिसृजतसृ छन्दस्युभयथा नृच नोपधायाः सर्वनामस्थाने चासंबुद्धौ वाशपूर्वस्य निगमे सान्तमहतः संयोगस्य अप्तृन्तृत्स्वसृनप्तृनेष्टृत्वष्टृक्षत्रुहोत्रुपोत्रुप्रशास्तॄणाम् इन्हन्पूषार्यं नांशौ सौ च अत्वसन्तस्य चाधातोः अनुनासिकस्य क्विझलोः क्निति अज्झनगमांसनि तनोतेर्विभाषा क्रमश्चक्त्वि छ्वोषूडनुनासिके च ज्वरत्वरश्रिव्यविमवामुपधायाश्च राल्लोपः असिद्धवदत्राभात् स्नान्नलोपः अनिदितां हल उपधायाः क्ङिति दंशसंज्ञस्वञ्जांशपि रञ्जेश्च घञ्च भावकर्णयोः स्यदो जवे अवोदैधौद्मप्रश्रथहिमश्रथाः नाञ्चेः पूजायां क्त्विस्कन्दिस्यन्दोः जान्तनशां विभाषा भञ्जेश्च चिणि शास इदं हलोः शाहौ हन्तेर्जः अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलिक्निति वाल्यपि नक्तिचिदीर्घश्च गमः क्वौ विद्वनोरनुनासिकस्यात् जनसनखनां सैझलोः ये विभाषा तनोतेर्यकि सनःक्तिचिलोपश्चास्यान्यतरस्याम् आर्धधातुके भ्रष्जोरोपधयोरमन्यतरस्याम् अतो लोपः यस्य हलः क्यस्य विभाषा नेरनिटि निष्ठायां सेटि जनिता मन्त्रे शमिता यज्ञे अयामन्ताल्वाये त्विष्णुषु ल्यपि लघुपूर्वात् विभाषापः युप्लुवोर्दीर्घश्छन्दसि क्षियः निष्ठायामण्यदर्थे वाक्रोशदैन्ययोः स्यसित्सीयुट्तासिषु भावकर्मणोरुपदेशे झनग्रहदृशां वाचिण्वदिट्च दीङो युडचिक्निति आतो लोप इति च ईद्यति घुमास्थागापाजहाति सां हलि एर्लिङि वान्यस्य संयोगादेः नल्यपि मयतेरिदन्यतरस्यां लुङ् लङ् लृङ्क्ष्वडुदात्तः आडजादीनां छन्दस्यपि दृश्यते नमाङ्योगे बहुलञ्छन्दस्य माङ्योगेऽपि इरयोरे अचिष्णुधातुभ्रुवां योर्यङ्वङौ अभ्यासस्यासवर्णे स्त्रियाः वांशसोः इणो यण् एरनेकाचो संयोगपूर्वस्य ओस्सुपि वर्षाभ्वश्च नभूसुधियोः छन्दस्युभयथा हुष्णुवो सार्वधातुके भुवो वुग्लुं लिटोः ऊदुपधाया गोहः दोषोणौ वाचित्तविरागे मितां ह्रस्वः चिन्नमुलोर्दीर्घोऽन्यतरस्यां खचिह्रस्वः ह्लादोनिष्ठायां छादेर्घे द्व्युपसर्गस्य इस्मन्त्रं क्विषु च गमहनजनखनघसां लोपः क्नित्यनङि तनिपत्योश्छन्दसि घसि भसोर्हलि च हुजल्भ्यो हेर्धिः श्रुश्रुणु प्रकृवृभ्यश्छन्दसि अङितश्च चिणोलुक् अतोहेः उतश्च प्रत्ययादसंयोगपूर्वात् लोपश्चास्यान्यतरस्याम्मोः नित्यं करोतेः ये च अत उत्सार्वधातुके श्नसोरल्लोपः श्नाभ्यस्तयोरातः ईहल्यघोः इद्दरिद्रस्य भियोऽन्यतरस्यां जहातेश्च आचहौ लोपोयि घ्वसोरेद्धावभ्यासलोपश्च अत एकहल्मध्येनादेशादेर्लिटि थलि च सेटि तृफलभजत्रपश्च राधो हिंसायां वाज्रभ्रमुत्रसां फणाञ्च सप्तानां न शसददवादिगुणानां अर्वणस्त्रसावनयः मघवा बहुलं भस्य पादःपत् वसोः सम्प्रसारणं वाह ऊठ श्वयुवमघो नाम तद्धिते अल्लोपो नः शपूर्वहन्धृतराज्ञामणि विभाषा निश्योः न संयोगाद्वमन्तात् अचः उद ईत् आतो धातोः मन्त्रेष्वाङ्यादेरात्मनः तिविंशतेर्डिति तेः नस्तद्धिते अह्नष्टखोरेव ओर्गुणः ढेलोपोकद्रुवाः यस्येति च सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः हलस्तद्धितस्य आपत्यस्य च तद्धिते नाति क्यच्व्योश्च बिल्वकादिभ्यश्चस्य लुक् तुरिष्ठे मे यस्सु तेः स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः प्रियस्थिरस्फिरोरुबहुलगुरुवृद्ध तृप्रदीर्घवृन्दारकाणां प्रस्थस्पवर्बं हि गर्वर्षित्रब्द्राघिवृन्दाः बहोर्लोपो भूच बहोः इष्ठस्य इट्च ज्यादादीयसः ररुतोहलादेर्लघोः विभाषर्जोश्छन्दसि प्रकृत्यैकाच् इनण्यनपत्ये गाथिविदथिकेशिगणिपणिनश्च संयोगादिश्च अन् ये चाभावकर्मणोः आत्माध्वानौखे नम पूर्वोपत्येवर्मणः ब्राह्मो जातौ कार्मस्ताच्छील्ये औक्षमनपत्ये दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेय वाशिनायनि भ्रौणहत्य धैवत्य सारवैक्ष्वाक मैत्रेय हिरण्मयानि ऋत्व्यवास्त्व्यवास्त्वमाध्वी हिरण्ययानि छन्दसि अङ्गस्य राल्लोपो विद्वनोर्वाक्रोशेणो यण्हुजल्भ्यस्थलि च मन्त्रेषु ररुतः पञ्चदश इति चतुर्थः पादः इति षष्ठोऽध्यायः।